इमाम्भ्यम् सप्तशीर्ष्णेम् पिता न ऋत प्रजाताम् बृहदीमा विन्दति तुरीयम् सृजनयद्विश्वजन्यायास्य मुख्यमिन्द्राय संसन् ऋतम् संसन्तरिदिध्यानादिवस्पुत्रासो असुरस्य वीराः इत्रम् प्रथमङ्गीरसो दधानायज्ञस्य धाव प्रथमम् आनन्द हंसैरेवसखीभिर्वावदद्भिरस्मिन् मयानिनः नाव्यस्यन् बृहस्पतिरभिगणिग्रदद्गाबुदप्रास्तोदुच्च विद्वाङ्गायते अवोद्वाभ्याम् परयेकयागागुहातिष्ठम् तीरनृतस्य सेतौ बृहस्पतिस्तमसि ज्योतिरिच्छन्मजस्रा गर्भिः तिस्रावाः इभिद्यापुरम् दयथेव पाचीम् निस्त्रीणि साकमुदधेर कृन्दते बृहस्पतिरुषसं सूर्यङ्गाभर्कम् विवेदस्तनयन्निभद्योः इन्द्रो बलम् रक्षितारम् जुहानाम् करेणेः भवितकर्तारवेण शेलाञ्जभिरासिरमिच्छमारोदयत्वनिमागामुष्णात् सजीम् सत्येभिः सखीभिः सुचद्भिर्गोदाय संविदानशैरदत्तः ब्रह्मणस्पतिर्वृषभिर्वराहैर्धर्मस्वे देभिर्द्रवीणम् व्यानट् ते सत्येन मनसा गोपदिङ्गायी यानास युषणयन्तधीभिः बृहस्पतिर्मिथो अबद्यवेभिरुदुश्रिया असृजदस्वयुद्धीः तम् वर्धयन्तो पतिभिः शिवाभिः सिंहमीवनानदतम् सदस्ते मृणानम् सूरदातौ भरे भरे अनुमदेव जिष्णौ यदा राजमदा नद्विश्वरोपमाद्यामरक्षदुत्तराणि सद्मा बृहस्पतिम् मृणानम् वर्धयन्तो नानादन्तो बिभ्रतो ज्योतिरासा सत्यामासिकम् कृणुतापयोधैः किञ्चिद्यवधस्वेभिरेवैः पश्चामृधो अवभवन्तु विश्वास्तद्रोदशी शृणुतम् विश्वमिन्वे इन्द्रो मन्नामहतो अर्णवस्य विमूर्धानामभिनदद्भुतस्य अहन्न हिमलीनाः सप्त सिन्धोन् देवैर्द्यावा पृथिवीर्प्रावतम् नः